ಯೇನಾಕ್ಷರಸಮಾಂ ನಾಯಮಧಿಕಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃಷ್ಣಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನ ಯೇ ನಮಃ ವಾಕ್ಯಕಾರಂ ವರರುಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣತೋಸ್ಮಿ ಮುನಿತ್ರಯಂ ನತ್ವಾ ಸರಸ್ವತೀಂ ದೇವೀಂ ಶುದ್ಧಾಂ ಗುಣ್ಯಾಂ ಕರೋಮ್ಯಹಂ ಪಾಣಿನೀಯ ಪ್ರವೇಶಾಯ ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದೀಂ ಗುರುದೇವ ಗತಿ ಗುರುಮೇವ ಭಜೆ ಗುರುನೈವ ಸಹಾಸ್ಮಿ ನಮೋ ಗುರವೇ ನ ಗುರೋಃ ಪರಮಂ ಶಿಶುರಸ್ಮಿ ಗುರೋಃ ಮತಿರಸ್ತಿ ಗುರೋ ಮೋ ಪಾಹಿ ಗುರೋಃ ಓಂ ನಮಃ ಓಂ ನಮಃ ಪಾಣಿನಿ ಕಾತ್ಯಾಯನ ಪತಂಜಲಿಭ್ಯಃ ಶಬ್ದವಿದ್ಯಾ ಸಂಪ್ರದಾಯ ಪ್ರವರ್ತಕೇಭ್ಯಃ ಮುನಿಭ್ಯಃ ನಮೋ ಮಹಭ್ಯಃ ನಮೋ ಗುರುಭ್ಯಃ. ಇದಾನಿಂ ಹಲ್ಸಂಧಿ ಪ್ರಕರಣಂ ಪ್ರವಿಶಾಮಃ. ಇದಾನಿಂ ಸಂಧಿ ವಿಷಯ ಅಸ್ಮಾಭಿಃ ತತ್ರ ರೆಕಾರ್ಡಿಂಗ್ ಬಟನ್ ಮಯಾ ನ ಕೃತಂ ಪುನಃ. ಹಲ್ಸಂಧಿ ಪ್ರಕರಣಂ ಪ್ರವಿಶಾಮಃ. ಇದಾನಿಂ ಸಂಧಿ ಇತ್ಯುಕ್ತೆ ಕಃ ಇತ್ಯುಕ್ತೆ ಅಸ್ಮಾಭಿಃ ಅಧೀತಂ ವರ್ಣಾನಾಂ ಉಚ್ಚಾರಣ ಸಮಯೇ ಅತ್ಯಂತಂ ಸಾಮೀಪ್ಯಂ ಸಂಹಿತಾ ಯತ್ರ ಸಂಹಿತಾ ಅಸ್ತಿ ತತ್ರ ಕ್ವಚಿತ್ ವರ್ಣವ್ಯತ್ಯಯಃ ಭವತಿ ಅಯಮೇವ ಸಂಧಿಃ ಇತಿ ಅಸ್ಮಾಭಿಃ ಅಧೀತಂ. ಇದಾನೀಂ ವ್ಯಂಜನಸಂಧಿ ನಾಮ ಕಃ ಇತಿ ಪ್ರಶ್ನಂ ಕಿಂಚಿತ್ ಜಾನೀ ಇತಿ ಪ್ರಶ್ನಸ್ಯ ಉತ್ತರಂ ಕಿಂಚಿತ್ ಜಾನೀಮಃ. ತತ್ರ ಅಸ್ಮಾಭಿಃ ಅಧೀತಂ ಸಂಧಿ ಕಾರ್ಯಮಪಿ ತ್ರಿವಿಧಂ ಇತಿ ಆದೇಶಃ ಆಗಮಃ ಲೋಪಃ ಇತಿ ಶತ್ರುವದಾದೇಶಃ ಮಿತ್ರವದಾಗಮಃ ಅದರ್ಶನಲ್ಲೋಪಃ ಇತ್ಯಾದಿ ವಿಷಯಂ ಅಸ್ಮಾಭಿಃ ಅಧೀತಂ. ಇದಾನೀಂ ವ್ಯಂಜನಸಂಧಿ ಕಃ ಯಃ ಕೋಪಿ ವಕ್ತುಂ ಪ್ರಭವತಿ ವಾ ಕೃಪಯಾ ರೈಸ್ ಹ್ಯಾಂಡ್ ಕರೋತು ಅಹಂ ಫಸ್ಟ್ ಏಕಂ ಕಾರ್ಯಂ ಕರೋಮಿ. ವ್ಯಂಜನಸಂಧಿ ಕಃ ಇತಿ ವಯಂ ಪೃಚ್ಛಾಮಃ ಚೇತ್ ಕಿಂ ಉತ್ತರಂ. ಯು ಕ್ಯಾನ್ ಆನ್ಸರ್ ಇನ್ ಇಂಗ್ಲಿಷ್ ಆಲ್ಸೋ ಯದಿ ಇದಾನೀಂ ಸಂಹಿತಾ ವಿಷಯಃ. ಮಹಾದೇವನ್ ಮಹೋದಯ ಅಸ್ತು ಏಕನಿಮಿಷಂ. ಮಹಾದೇವನ್ ಮಹೋದಯ ಕೃಪಯಾ ಉತ್ತರಂ ವದತು. ಭವದ್ಭಿಃ ಏನ ಉಕ್ತಂ ವಾ ಇದಾನೀಂ ಮಹಾದೇವ ಮಹೋದಯ ಯು ಶುಡ್ ಅನ್ಮ್ಯೂಟ್ ಅಂಡ್ ದೆನ್ ಆನ್ಸರ್. ಅನುರಾಧ ಭಗಿನಿ you have to unmute your you have to mute mute karaniyam kinchit mahadev mahodaya uttaram vadatu. background asti
यानी न्यू टाल करूंगी।
महादेवन महोदय उत्तर वदतु। उषा भगिनी व्यंजन संधि कहा? व्यंजन संधि तत्र वर्णानाम् उच्चारण समये अत्यन्तं सामीप्यं संहिता, यदा संहिता भवति तदा वर्णव्यत्ययः भवति। वर्णव्यत्ययः कीदृशः इत्युक्ते आदेशागम लोपादयः वर्णव्यत्ययः, तादृशविकाराः भवन्ति। एतादृशविकाराः यदि व्यञ्जनेषु भवति चेत् स एव व्यञ्जनसन्धिः। व्यञ्जनस्वरमध्ये व्यञ्जनव्यञ्जनयोर्मध्ये यदि सन्धिः भवति चेत् स एव व्यञ्जनसन्धिः। अन्यरीत्या वक्तुं शक्यते वा? एकं विषयं वदामि। तत्र व्यञ्जनेषु आदेश आगमादयः व्यञ्जनसन्धिः, व्यञ्जनानां मध्ये आदेश आगमादयः व्यञ्जनसन्धिः, एवमपि वक्तुं शक्यते। व्यञ्जनसन्धेः एव अपरं नाम हल्सन्धिः इति उच्यते। इदानीं हल्सन्धौ कति सन्धयः सन्ति इति, तत्र एकादश द्वादश सन्धयः सन्ति, तद्विषये वयम् एकैकं जानीमः। इदानीं अष्टाध्याय्यां व्यञ्जनसन्धिप्रकरणं कुत्र अस्ति, तदेव प्रथमः विचारः। इदानीम् अष्टाध्याय्यां तत्र अकस्वर्णे दीर्घः, अदेङ्गुणः, वृद्धिरेचि इत्यादि सन्धयः कुत्र आसन् अस्माभिः अधीतं षष्टाध्यायस्य। यः कोऽपि वक्तुं प्रभवति चेत् रैस् हेण्ड् करोतु, अहम् अन्म्यूट् करोमि, वदतु। मुत्तुलक्ष्मी भगिनी षष्ठाध्यायस्य प्रथमे पादे केचन सन्धयः आसन्। इदानीं व्यञ्जनसन्धीनां तु तत्र प्रमुखतया तत्र केचन सन्धयः अष्टमाध्याये भवन्ति। इदानीं स्थुत्वसन्धिरेव अष्टमाध्यायस्य चतुर्थपादे चत्वारिंशत्तमं सूत्रं विद्यते। अस्तु, स एव प्रथमः विचारः। व्यञ्जनसन्धिः अस्माभिः अष्टमाध्याये द्रष्टव्यः। इदानीं प्रश्नः आगच्छति, तर्हि संहिता एतेषां मध्ये कथम् इत्युक्ते, तत्र एकः एकनिमिषं वदामि, संहिता कुत्र अस्ति। अष्टमाध्यायः प्रथमः पादः आद्गुणे नास्ति। संहिता इति पदम् अहम् अन्विषन् अस्मि। अष्टाध्याय्याम् अष्टमे अध्याये संहिता इति पदं कुत्र अस्ति? कुत्रापि अवश्यम् अस्ति इति जानामि, परन्तु इदानीं न लभ्यते। ओदः उदारे धातोः अस्तु, एकम् तत्तु संहिता अधिकारः 616 अधिकारे अस्ति। न, तत्तु सर्वे तत्तु अस्ति भगिनि, अत्र अष्टमे अध्याये किमपि अस्ति वा इति द्रष्टव्यम्। दृष्ट्वा वदामि प्रायः अस्ति तद्। अस्तु, अग्रे गच्छामः। एवम् अष्टमाध्याय्यां केचन सूत्राणि सन्ति हल्सन्धिविषयकसूत्राणि। इदानीं च्युत्वसन्धिः आदौ तत्र लघुकौमुदीकारेण उक्तः। स्तोः सुनास्तुः इति तस्य सूत्रम्। स्तोः सुनास्तुः इत्यत्र पदत्रयं विद्यते। स्तोः इत्यत्र षष्ठी द्विवचनमस्ति। स्चुना इत्यत्र स्चुना शम्भुना इति उकारान्तस्य शब्दः स्चु इति। स्चुना इति उकारान्तशब्दः तृतीयाविभक्ति एकवचनम्। अस्तु, समीचीनम्। स्चुः इत्यत्र प्रथमाविभक्ति एकवचनम् अस्ति। इदानीम् अस्य सूत्रस्य अर्थः तत्र पुस्तके सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः। अत्र रामश्चेते, रामश्चिनोति, सच्चित्, शार्ङ्गिञ्जय इत्यादि उदाहरणानि अत्र दत्तानि। इदानीम् अस्माभिः एतत् सूत्रार्थः कथम् आगतः इति द्रष्टव्यम्। सूत्रार्थः कथम् आगतः इति तद् पश्यामः। तत्र स्तोः इति षष्ठी विभक्तिः अस्ति। षष्ठी विभक्तेः अर्थः स्थाने, षष्ठी स्थाने योगा इति। षष्ठी स्थाने योगा इति सूत्रात्, इति परिभाषासूत्रात् अत्र स्थाने इति लभ्यते। सकारतवर्गयोः स्थाने इति स्वीकर्तुं शक्यते। तु इत्यत्र तवर्गः केन सूत्रेण विदितः? संज्ञाप्रकरणे अस्ति इदमेकम्। तु इत्यत्र तु इत्यस्य तवर्गः इति केन सूत्रेण विहितः? यः कोऽपि जानाति वा? मुत्तुलक्ष्मी भगिनी, अनन्तरं पृच्छामि। यः कोऽपि अन्यः वा अन्यः वा उत्तरं दातुम् इच्छति वा? तू इत्यस्य हा उषा भगिनी एकनिमिषं उषा भगिनी कृपया वदतु हा ऋतुलसानां दन्ताः इत्यत्रापि तु इत्यस्य तवर्गः इति केन सूत्रेण अस्माभिः किञ्चित् ज्ञातः अणुदित् सवर्णस्य चाप्रत्ययः वा हरि ओम् वदतु हा कूचूटु तूपु एते उदिताः इति वाक्यमस्ति हा तत्र अणुदित् सवर्णस्य चाप्रत्ययः इति सूत्रे वाक्यमस्ति कूचूटु तूपु एते उदितः इति तेन ज्ञातः अवश्यं सम्यक् उक्तम् इदानीम् अत्रापि स्तोः इदानीं तु इति उकारः इदानीम् उकारस्य गुरुशब्दस्य षष्ठीभक्तिः गुरोः इति तदेव स्तोः इति सकारतवर्गयोः स्थाने इति स्थानषष्ठी लभ्यते स्थूला इत्यत्र तृतीया विभक्तिः अस्ति इदानीं तृतीया विभक्तिः किमर्थं स्वीकृतं तृतीया विभक्त्याः किमपि अर्थः अस्ति वा विशेषेण अत्र तृतीया विभक्तिः किमर्थं स्वीकृतं नाम अत्र व्याख्यानकर्तारः वदन्ति तत्र योगे इति अस्माभिः योगे इति अस्माभिः वक्तव्यं षकारचवर्गाभ्यां योगे इति योगे परे इत्यस्य भेदः अस्ति इदानीं स्वरसन्धौ सर्वत्र वयं किं दृष्टवन्तः तत्र इकः यं स्यात् अचि संहितायां विषये परे इत्यादि शब्दाः वयं श्रुतवन्तः योगे इति प्रथमवारम् अत्र आगच्छति अस्य किमपि महत्त्वम् अस्ति अस्य सन्देहे स्चुना इति तृतीया विधानेन अत्र योगे इति अर्थः आगच्छति किमपि महत्त्वम् अस्य अस्ति किम् इति पश्यामः इदानीं स्तोः स्चुना स्चुः स्चुः इति प्रथमा विभक्तिः अस्ति अत्र विधेयः विधीयमानः षकारचवर्गाः अत एव प्रथमा विधेयः अस्ति षकारचवर्गौ स्तः इदानीं अस्य योगे इत्यस्य सूत्रार्थे योगे इति स्वीकारेण किं भवति इत्युक्ते तत्र प्रथमं तत्र स्वरसन्धौ अनुराधा भगिनी किमपि प्रष्टुम् इच्छति वा ओ तद् पूर्वं दत्तवान् मयापि स्मर्तव्यं तत् सकारतवर्गः अत्र वामे अस्ति स्लैड् मध्ये वामे अपि भवितुमर्हति दक्षिणे अपि भवितुमर्हति फलितांशः तु सकारचवर्गः एव अत एव योगे इति स्वीकृतमत्र விசேஷ விசேஷத்தையாத்திர பூர்வம் சர்வத்திர இக்கோ இணச்சீத்தியத்திர இக்வர்ணஹா வாமே ஆசீத் இத்தியுக்தே பூர்வபதே ஆசீத் அச்வர்ணஹா தட்சிணே ஆசீத் இத்தியுக்தே உத்தரபதே ஆசீத் ஏவம் கதாசித் சந்திஹி பூர்வபதஸ்ய அந்திம வர்ணேன சகவா பூர்வபத அந்திம வர்ணஹ தித்திய பதஸ்ய ஆதிம வர்ணஸ்ய சந்திஹி பவதி. அத்ர பூர்வபதம் உத்தரபதம் இத்யேவ வக்தும் ந சக்யதே. கதாசித் யோகே இதி ஸ்வீகாரேண சுனா இதி திருத்தியா வக்தி நிர்தேசேன அத்ர கிம் நிர்திஷ்யதே இத்யுக்தே சகார சவர்க்கயோஹ சகார சவர்க்கஹ பவேத். குத்ர இதி கிமபி ந நிர்திஷ்டம். வாமே வா பவது, தக்ஷிணே வா பவது, பரே வா பவது, பூர்வே வா பவது, யத்கிமபி பவது, தத்ர சகார சவர்க்கோ வ்யவஸ்தஹ இதி அதஹ யோகே இதி ஸ்வீகிருதம். உபயத்ராபி ஃபலம் து சகார சவர்க்கஹ ஏவ. இதானீம் அந்யத் விஷயம் அஸ்மாபிஹி பூர்வம் அதீதம் யதா சங்க்யம் அனுதேச சமானாம். இதானீம் கஸ்ய கஹ வர்ணஹ பவதி சகார இதானீம் ஏவம் ரீத்யா க்ரியதே சேத் அத்ர க்லேஷா வித்யதே. யஸ்ய கஸ்யாபி யஸ்ய கிமபி வர்ணஹ பவதி வா கிமபி நியமஹ அஸ்தி வா இத்யாதி விஷயே ஞாதவ்யம் பவதி. அதஹ தத்ர யதா சங்க்யம் அனுதேச சமானாம் இதி பரிபாஷா சூத்திரம் அஸ்மாபிஹி ஸ்வீக்ரியதே. தத்ர யதா யதா சங்க்யம் அனுதேச சமானாம் தத்பூர்வமேவ அஸ்மாபிஹி அதீதம். கோபி வக்தும் அர்ஹதி வா யதா சங்க்யம் அனுதேச சமானாம் நாம கிம். கிரமேண ஸ்வீகரணீயம் இதி பிரதமஸ்ய பிரதமஹ த்விதீயஸ்ய த்விதீயஹ த்ரிதீயஸ்ய த்ரிதீயஹ சதுர்த்தஸ்ய சதுர்த்தஹ ஏவமேவ ஸ்வீகர்த்தவ்யம். ஆங்கில பாஷாயாம் தத்ர கிம் வதந்தி ரெஸ்பெக்டிவ்லி ரெஸ்பெக்டிவ்லி கரஸ்பாண்டிங்லி இத்யாதி வதந்தி ஆங்கில பாஷா. அஸ்து கிரமேண ஸ்வீகர்த்தவ்யம் இத்யேவ தத்ர யதா சங்க்யம் அனுதேச சமானாம் இதி பரிபாஷா சூத்திரம் அத்ர ஆகச்சதி காரியம் கரோதி. ஏதத் விதி சூத்திரம் அஸ்தி பரிபாஷா சூத்திராணி சன்யா சூத்திராணி விதி சூத்திரஸ்ய சாஹாயம் குர்வந்தி இதி வயம் பூர்வமேவ ஜ்ஞாதவந்தஹ. நெக்ஸ்ட் ஸ்லைட் மத்தியே மம கட்டண கச்சத்யவ ஆகத்ய ஏவம் என்டர் கரணீயம். யதா சங்க்யம் அனுதேச சமானாம் அத்ர சமானாம் இது அஸ்தி. இகோ யணசீத் சூத்திரஸ்ய வியாக்யான சமயே வயம் ஏதத் சர்வம் ஞாதவந்தஹ. யதா சங்க்ய பிரகாரேண சகாரஸ்ய சகாரஹ ஏவ பவதி தகாரஸ்ய சகாரஹ ஏவ பவதி யத்ர குத்ராபி பவது வாமே வா பவது தட்சிணே வா பவது பூர்வே வா பவது பரே வா பவது தகாரஸ்ய சகாரஹ தகாரஸ்ய ஜகாரஹ தகாரஸ்ய ஜகாரஹ நகாரஸ்ய ஞகாரஹ ஏவமேவ பவதி. ஹரிஷ்யேதே இதி உதாரணம் பஷ்யாமஹ அத்ர ராமஷ்யேதே இதி அஸ்தி ததாபி ஹரிஷ்யேதே இதி ஸ்வீகிருதம். அத்ர சகார தவர்க்கயோஹ த இத்யத்ர ஸ்து ஸ்துவர்ணஹ அஸ்தி ஸ்துவர்ணஸ்ய ஸ்துவர்ணஹ ஸ்தோஹ ஸ்துஹ ஏவம் ஹரிஷ்யேதே இதி பவதி. சகாரஸ்ய கிம் பவதி இத்யுக்தே சகாரஸ்ய சகாரஹ ஏமேவ ராமஸ்சினோதி இத்யத்ராபி तत्र एकम एनिमेटेड एवं अत्र स्थानी इदानीं प्रश्नं पृच्छामि स्थानी कः अस्मिन् संधौ स्थानी कः कोपि वदति वा अत्र वर्ण तत्र कॉन्सेप्ट त्रयं विद्यते स्थानी स्तु वा शिशुसु पूर्णं स्थानी वा अस्तु अस्तु सकारः स्थानी निमित्त आदेश इति अस्ति स्थानी सकारः निमित्तं सकारः आदेशः सकारः आदेशोपि सकारः निमित्तमपि सकारः स्थानी सकारः हा एतद् ज्ञातव्यं सम्यक् ज्ञातव्यम् अस्तु इदानीं एकनिमिषम् इदानीम् अस्मिन् कोष्टके पश्यन्तु पूर्ववर्णः परवर्णः इति उभयम् उभयत्रापि पूर्ववर्णः परवर्णः इत्येव लिखितम् एवं सकार आदेशस्तु सकारचवर् सकारः चवर् चवर्गीयाः वर्णाः स्थानी तु सकारतवर्गाः सम इदानीं यथासङ्ख्यमनुदेशसमानामिति सूत्रं कथं प्रवृत्तम् इति प्रश्नः अत्र आगच्छति आदेशस्य स्थानिनः समसङ्ख्यत्वात् अत्र यथासङ्ख्यमनुदेशसमानामिति सूत्रं प्रवृत्तम् यदि समसङ्ख्यं नास्ति तदा यथासङ्ख्यमनुदेशसमानामिति सूत्रं नागच्छति अतः समसङ्ख्यत्वात् स्थानिनः आदेशस्य समसङ्ख्यत्वात् स्थानिनः आदेशानां समसङ्ख्यत्वात् यथासङ्ख्यमनुदेशसमानामिति सूत्रस्य प्रवृत्तिः नो चेत् अस्य सूत्रस्य प्रवृत्तिः सर्वत्र न भवति एतद् ज्ञातव्यं रामश्चिनोति इत्यत्रापि इदानीं सकारः अस्ति चवर्गः वर्णः अस्ति सकारस्य सर्वदा किं भवति शकारः एव आदेशः यत्किमपि वर्णः भवतु चवर्गीयः वा भवतु शकारः वा भवतु सुत्वादेशः एव भवति इति अयम् इदं सूत्रं वदति सचित् इत्यत्रापि सत् चित् तत्र सचित् इत्यत्र चत्वार सचित् इत्यत्र अहम् अनन्तरं वदामि तस्य स्टेप्स् कथं भवति इति परन्तु सुत्वसन्धिः जस्त्वादिकमपि जस्त्वं चर्त्वम् एतत् सर्वं भवति तद्विषये वयम् अग्रे जानीमः शार्ङ्गिन् जय इत्यपि अस्ति शार्ङ्गिन् जय इत्यत्र शार्ङ्गिन् जय इत्यत्र स्पेल्लिङ्ग् मिस्टेक् अस्ति तदस्तु शार्ङ्गिन् जय इति अत्रापि सुत्वसन्धिः एव इदानीं समयम् अतीतं वा ओ अस्तु शात् इति अस्ति. अस्तु पश्यामः अद्य किमपि टूल् विषये किञ्चित् विलम्बः जातः. एतत् पुनः किञ्चित् उक्त्वा अग्रिमकक्षायां किञ्चित् हल्सन्धि विषयमहं किञ्चित् वेगेन करोमि इति चिन्तितवान्. इदानीं भवन्तः भवत्यश्च अत्र इदानीं भाषितुं प्रभवन्ति कक्षामध्ये, अतः मम क्लेशः नास्ति. अतः यत्किमपि प्रश्नः अस्ति चेत् यदि अहं वेगेन गच्छामि चेत् कृपया प्रष्टुं शक्यते. अतः किञ्चित् वेगेन गन्तव्यम् इति मम आशा अस्ति. ये अद्य कक्षां प्रति नागतवन्तः, यदि भवन्तः भवत्यश्च तान् जानन्ति चेत् ताः जानन्ति चेत् कृपया सूचयन्तु, कक्षां प्रति आगत्य सूचयन्तु. इदानीं नूतनं प्रकरणम् आरब्धम्, अतः मध्ये पाकः स्थगितः इत्यादि तैः वक्तुं न शक्यते. यदि ते अवगन्तुं समर्थाः इत्युक्ते योजयतु, तत्र मम क्लेशः किमपि नास्ति. अवश्यं योजयितुं शक्यते. ओ तद् किं करणीयम्, एकनिमिषम् अहं चिन्तयामि. इदानीं नूतन गोटु वेबिनार् मध्ये किं प्रोसीजर् अस्ति, मया एकम् इन्वैट् प्रेषणीयं. तत् दे हाव् टु रैट् अन् ईमेल् टु मी, देन् ऐ केन् सेण्ड् लिङ्क्. दे केन् जस्ट् रैट् अवे रिजिस्टर् लैक् हौ यु आल् केम् टुडे. प्रेष्यते चेत् अहमपि ज्ञातुम् इच्छामि के. इदानीं सर्वेषां विषये अद्य अहं न पृष्टवान्. वस्तुतः छात्राणां छात्राः एव अतीव समर्थाः इति अत्र प्रायः एवं दृश्यते. महादेवन् सुब्रह्मण्यं गीता कल्याणी एतेषां विषये ज्ञातम् अद्य. अस्तु अग्रिमकक्षाविषये इफ् ऐ नो मै स्टूडेण्ट्स् बेटर् ऐ केन् कस्टमैस् द लेसन्स् बेटर्. यदि अहं भवतां विषये सम्यक् जानामि, अत्र कस्य क्लेशः अस्मिन् विषये भवति इत्युक्ते वेर् ऐ हाव् टु स्ट्रेस्, कुत्र मम आग्रहः भवेत् इत्यादिविषयकम् अहं जानामि चेत् किञ्चित् सम्यक् पाठयितुं शक्यते. अतः अग्रिमकक्षायामपि अहं किञ्चित् दशनिमिषं सर्वेषां जनरल् इन्ट्रोडक्षन् इत्यादिकं करोमि, अनन्तरं पाठं करोमि. एतद् कक्षाद्वयं भविष्यति, यतोहि द्वादशजनाः एव सन्ति, प्रायः 14 इस् द स्ट्रेन्थ् आफ् द क्लास्. सुजाता भगिनी, अहं ज्ञातुमिच्छामि एते सर्वे किमर्थं नागच्छन्ति इति, यदि भवत्याः शिष्याः एते सन्ति चेत्. अस्तु ओ अपेक्षितम्, ओ एवम् उक्तवन्तः वा, के अस्तु अस्तु अस्तु. तर्हि डु नाट् फोर्स् देम्, बट् यदि ते इच्छन्ति, इदानीं टूल् कारणतः कोऽपि न आगतः वा कापि नागता वा, एनी मीटिङ्ग् सम्यक् नासीत् मम कृते, अहं न श्रुतवान्, एतादृशकारणम् आसीत् इत्युक्ते, इदानीं नूतन टूल् आगतं, स्क्रीन् शेरिङ्ग् अस्ति, सर्वमस्ति, आडियो अपि अस्ति, अतः इदानीं सम्यगस्ति इति कारणतः अहम् एवं पुनः एकवारं प्रष्टुं शक्यते. अहमपि मेल् द्वारा पृच्छामि, अहं सूचितवान् मेल् द्वारा, वि हेव् अ न्यू टूल् इति सर्वं लिखितवान्. अस्तु अस्तु, धन्यवादाः, शुभरात्रि. सर्वेषां कृ अद्य किञ्चित् पाठः न भवति यतो हि टूल् फेमिलरैजेशन् आसीत् ममापि नूतनमेव एतत् अग्रिमकक्षातः किञ्चित् वेगेन गच्छामः मार्च् मासतः कक्षात्रयं कुर्मः अवश्यं शीघ्रतया एतत् पुस्तकं समापयामः ममापि इदानीम् आनन्दः जातः यतोहि अहं भवतां ध्वनिः इदानीं शृणोमि इति नो चेत् अहं सदा चिन्तयन् आसम् कुत्र अहं किं पाठयन् अस्मि सर्वे छात्राः अवगच्छन्ति वा न वा सर्वे आमाम् इति टैप् कुर्वन्ति तथापि यदि इदानीं ध्वनिश्रवणेनैव ज्ञायते यदि एक्स्पीरियन्स् टीचर् अस्ति चेत् ध्वनिश्रवणेनैव ज्ञातं वा न ज्ञातं वा इति ध्वनिश्रवणेन मुखदर्शनेन अवश्यं ज्ञायते ते यद्यपि एवमेवं करोमि शिरश्चालनं कुर्वन्ति तथापि ध्वनिना किञ्चित् मुखदर्शनेन ज्ञायते अतः अस्ति अवश्यं श्रोतव्यमेव अस्तु अहं बोर् न करोमि किञ्चित् अधिकम् आसक्तिं कथं वर्धेत तादृशं पाठं कर्तुम् अहं प्रयत्नं करोमि अस्तु धन्यवादः राम 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 अस्तु अस्तु।